एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा एमाले दलस्य संसदीय दलस्य उपवेशेन संसदीय समिति संगठिता वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे गतदिने उपविष्टेन दलस्य उपवेशेन प्रधानमन्त्रिणः केपी शर्मा ओलिनः प्रामुख्ये झलनाथ खनाल माधव कुमार नेपालाभ्याम सहिता चतुर्विंशति सदस्यीय संसदीय समिति संगठिता स्थिति। उपवेशस्य पश्चात् सांसद शेरबहादुर तामाङ अज्ञापयत्। उपवेशेन संसदीय दलस्य विधान संशोधन प्रस्तावम् निर्मातुम् त्रिसदस्यीय समिति संगठिता स्थिति सांसद तामाङ ज्ञापितवान्। संसदीय दलस्य प्रमुख सचेतकस्य विशाल भट्टराई इत्यस्य संयोजकत्वे संगठितायाम् समितौ प्रतिनिधिसभातः शेरबहादुर तामाङ, राष्ट्रिय सभातः विमला राई पौडेलश्च सदस्यौ स्तः। उपवेशेन संगठिताया संसदीय समितेः पदेन सदस्येषु सुभाष नेवाङ, विशाल भट्टराई, शान्ता चौधरी च सन्ति। उपवेशेन सप्तविंशति सदस्यीया संसदीय समितेः कृते अवशिष्टम् जनत्रयम् कतिचित् समय पश्चात् मनोनेष्यते इति सांसद शेरबहादुर तामाङ अवोचत। नेकपा एमाले दलस्य संसदीय दलस्य अपर उपवेशा स्व चैत्रस्य सप्तमे दिवसे वस्ता। नेपाल कम्युनिष्ट पार्टी एमाले दलस्य असन्तुष्टस्य खनाल नेपाल पक्षस्य राष्ट्रिय कार्यकर्तृ मेलनम् सप्तदश सूत्रीय प्रस्तावान् पारितीकृत्य ह्य सम्पन्नम्। मेलनेन विधान विपरीतम्, विधान संशोधनम्, केन्द्रीय समिते पदाधिकारीणाम् दायित्व परिवर्तनम्, दलस्य अगृहित सदस्यतानाम् व्यक्तिनाम् केन्द्रीय समितौ मनोनयनात्मक गत फाल्गुन मासस्य निर्णयश्च अवैधानिका सन्तीति निर्णीतम् इति ज्ञापितम् वर्तते। एवमेव मेलनेन गत फाल्गुन मासस्य अष्टाविंशे दिवसे विहितम् निर्णयम् निरस्तीकृत्य क्रमशः स्थायी समितेः पोलिट ब्यूरो नीति निर्धारण निकायस्य केन्द्रीय समितेश्च उपवेशान् आकार्य विधि पद्धति सम्मतम् विमर्शनम् विधातुमपि अभियाचितम् वर्तते। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड प्रधानमन्त्री पदम् आत्मना ईप्सितम् नास्तीति कथयति। प्रेस संगठन नेपालस्य सिन्धुली शाखया ह्य आयोजिते पत्रकार सम्मेलने अध्यक्ष प्रचण्ड अगदत् लोकतन्त्रस्य समावेशिताया समानुपातिकताया संविधानस्य च विरूद्धे इदानीमपि चलखेल नावरुद्धोऽस्ति। वामदलेषु बृहत्तरैकता अधुनापि सन्धरणीयेति भाषमाण अध्यक्ष प्रचण्ड सर्वैः दायित्ववायुभिः वामैकतायाः पक्षे स्थेयमिति धारणाम् प्राकटयत्। जसपा विधेन जनता समाजवादी दलेन सर्वकारस्य संघटनस्य विषये कः सहयोक्तव्य इति विषय हो यावत् निर्णीतो नास्तीति ज्ञापितम् वर्तते। वर्तमान परिस्थितौ सत्ता सहभागिता प्रवृत्ति विषयान् विमृष्टुम् जसपा दलस्य भूयो भूय पदाधिकारिणाम् उपवेशेषु उपविष्टेषु सत्स्वपि कोऽपि निर्णयः प्राप्तो नास्ति। ललितपुरस्य बालकुमारी वर्तिनी दल मुख्यालये ह्य उपविष्टः पदाधिकारिणाम् उपवेशः निष्कर्षहीनो अभवत्। गतदिवसाय एव आकारि जसपा दलीयाया केन्द्रीय कार्यकारी समितेः उपवेशश्च स्थगितो भवत्। समितेः उपवेशस्य पूर्वकार्यस्वरूपेण उपविष्टेन पदाधिकारिणाम् उपवेशेन आवश्यक पूर्वकार्यम् अपर्याप्तम् इति कारणम् दर्शयित्वा उपवेश स्थगितकृत इति जसपा दलस्य नेता केशव झा अबोधयत्। नेपाली कांग्रेस दलस्य महामन्त्री डा शशांक कोइराला कथयति दलस्य महाधिवेशनम् आगामिनी भाद्रमासे भविष्यति। विराटनगर विमानस्थले ह्य संचारकर्मिभिः सह महामन्त्री डा कोइराला दलस्य क्रियाशील सदस्यताया नवीकरणस्य नवीन सदस्यतानाम् क्रियाशील सदस्य निर्धारणस्य च कार्यम् दले सम्पद्यमानमस्तीति हेतोः निर्धारितेषु एव दिनाङ्केषु दलस्य अधिवेशनम् सम्पत्स्यते इति अतर्कयत्। महामन्त्री डा कोइराला अतपरम् नेपाली कांग्रेस दलेन सर्वकारः संघटितव्यः इति स्वधारणास्तीति अवोचत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः भासते लोकतन्त्रस्य रक्षायै दलम् प्रथमतः लोकतान्त्रिकम् सम्पादनीयम्। नेतृत्वस्य कारणेन नेपाली कांग्रेस दलम् स्वयं लोकतान्त्रिकम् नास्तीति अनुवेदयन् देशे दृष्टे राजनैतिक दैविध्ये इव कांग्रेस दलस्य अभ्यन्तरेऽपि वैविध्यम् सृष्टम् अस्तीति नेता पौडेलः अवोचत्। दलस्य केन्द्रीय सदस्यस्य दीपगिरी इत्यस्य पितुः स्वर्गीयस्य लोकमणिगिरी इत्यस्य त्रयोदश्याम् पुण्यतिथौ ह्य दाङ जनपदस्य तुलसीपुरे आयोजितायाम् श्रद्धाञ्जलि सभायाम् नेता पौडेलः अभाषत। सम्प्रति देशस्य कठिन परिस्थितौ विद्यमानतायाः समये प्रमुख प्रतिपक्षी दलस्य स्वरूपेण वस्तुगत कार्यस्य सञ्चालनीयस्य समये दलमेव द्वैविध्ये वर्तते। पूर्व राष्ट्रपति डाक्टर रामवरण यादव वदति राजनैतिक दलैः दायित्वपूर्णरूपेण अग्रे वर्धितव्यम्। चितवने ह पत्रकारैः भाषमाणः पूर्व राष्ट्रपतिः डाक्टर यादवः दलैः स्वभूमिकां दायित्वपूर्णतया बोढुं बलं प्रादात्। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य पूर्व गृहमन्त्री च कृष्ण प्रसाद सिटौला गदति नेपाली कांग्रेस दलेन निर्धारित समये चतुर्दशम महाधिवेशनम सम्पादनीयम्। नेपाली कांग्रेस दलस्य सुनसरी शाखया यह आयोजितम अग्रणी कार्यकर्तृ मेलनम सम्बोधयन् नेता सिटौला नेपाली कांग्रेस दलेन निर्धारित समये महाधिवेशनम असम्पादितम सद महान संकट सम्भविष्यतीति प्रत्यादिशत। परराष्ट्र मन्त्री प्रदीप कुमार ग्यावाली वक्ति सर्वविधानां समस्यानां वार्तया संवादेन च समाधानस्य मान्यता नेपालेन अवलम्बितास्ति। इजरायल देशीय राजदूतावासेन ह्य काष्ठमण्डपे आयोजितं नेपाल इजरायल दौत्य सम्बन्ध सम्बद्धं सम्मेलनं सम्बोधयन् मन्त्री ग्यावाली अगदत् नेपाल इजरायल देशयो द्विपक्षीय बहुपक्षीयश्च सम्बन्ध सुमधुरो वर्तते। मन्त्री ग्यावाली इजरायल देशीय कृषि प्रविधे हस्तान्तरणेन नेपालस्य कृषि क्षेत्रस्य आधुनिकीकरणाय अतिरिक्तः सहयोगः प्राप्स्यतीति विश्वासं व्यक्तवान्। नेपाले यः अतिरिक्तेषु सप्ताधिक शते जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। एतदनु नेपाले ह्यस्तनावधि कोरोना विषाणुना संक्रान्तानां जनानां समग्र संख्या लक्षद्वयं पञ्चसप्ततिः सहस्राणि पञ्चविंशत्यधिक षट्शतं च प्राप्तास्ति। एवमेव यः अतिरिक्तः षष्ठीजना कोरोना संक्रमणात् मुक्ताः सन्ति। एतदनु आराष्ट्रं ह्यस्तनावधि कोरोना मुक्तानां जनानां समग्र संख्या लक्षद्वयम् एकसप्ततिः सहस्राणि दशाधिक षट्शतं च प्राप्तास्ति। कोरोना संक्रमणेन ह्य अतिरिक्तस्य जनैकस्य मृत्युः पश्चात् संक्रमणेन नेपाले मृतानां जनानां ह्यस्तनावधि समग्र संख्या पञ्चदशाधिक सहस्रत्रयं प्राप्त्यति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाविदेन संविधान सभा सदस्यस्य विराटनगरपालिकायाः पूर्व प्रमुखस्य च अशोक कोइराला विधस्य निधनं प्रति दुःखं व्यक्तम् अस्ति। सभापति देउवा ह्य शोक विज्ञप्तिं प्रकाश्य नेपालस्य लोकतान्त्रिकान्दोलने नेत्रा कोइराला इत्यनेन निरूढा भूमिका सदैव प्रशंसनीया स्थिति अकथयत। इति समाचारः।